ओमस्य श्री महालक्ष्मी कवच मंत्रस्य ब्रह्मा ऋषिः गायत्री छन्दः महालक्ष्मीर्देवता महालक्ष्मी प्रीत्यर्थम् जपे विनियोगः इन्द्र उवाच समस्त कवचानां तु तेजस्वि कवचोत्तमम् आत्मरक्षणमरोग्यम् सत्यं त्वं ब्रूहि गीष्मते श्रीगुरुरुवाच महालक्ष्म्यास्तु कवचम् प्रवक्ष्यामि समासतः चतुर्दशसु लोकेषु रहस्यम् ब्रह्मणोदितम् ब्रह्मोवाच शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा घ्राणम् पातु वरारोह जिह्वा मान्माय रूपिणी मुखम् पातु महालक्ष्मीः कण्ठम् वैकुण्ठवासिनी स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना वक्ष पातु च श्रीदेवी हृदयम् हरिसुन्दरी कुक्षिम् च वैष्णवी पातु नाभिम् भुवनमातृका कटिम् च पातु वाराही सत्थिनी देवदेवता ऊरु नारायणी पातु जानुनी चन्द्रसोदरी इन्दिरा पातु जङ्घे मे पादौ भक्त नमस्कृता नखान्तेजस्विनी पातु सर्वाङ्गम् करुणामयी ब्रह्मणालोकरक्षार्थम् निर्मितम् कवचम् श्रियः ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये कवचेनावृताङ्गानाम् जनानाम् जयदा सदा मातेव सर्वसुखदा भवत्वममरेश्वरी भूयः सिद्धिमवाप्नोति पूर्वोक्तम् ब्रह्मणा स्वयम् लक्ष्मीर्हरिप्रिया पद्मा ये तन्नामत्रयम् स्मरन् नामत्रयमिदम् जप्त्वा स याति परमाश्रियम् यः पठे स च धर्मात्मा सर्वान् कामान् अवाप्नुयात्।